नमस्कारः सिद्धान्तकौमुद्याः अनन्तपुल्लिङ्गप्रकरणे पञ्चदशपाठः अक्टोबर् मासस्य अष्टादशः दिनाङ्कः एनाक्षरकुलां नाम्यम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनिः नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य ऋदुक्तीष्परिभाग्रे च वैयाकरणसिद्धान्तकौमुदीयम् निरस्यते अनन्तपुण्यप्रकरणे गतानान्ताः अधीयन्ते अहम् एतद् प्रसन्टेशन् कृते ट्रेडिशनल् क्लास् कृते It's just a text of Siddhanta Kaumudi and the commentary. So you see how I learned this is a that we've really done. You have the text, you have the reaction, you look at both and try to make sense of both. So there will be a few typing errors or scanning errors. In the text. If you have your own text, you can use it, or you can use whatever is on the screen. Gadarantheshu Pullingeshu Madhu Yidh Shabdaha Jiha Yidh Shabdaha Jirihaha Bhavatamartati Ekaha Yidha Samadhu Uttihato Anishpannaha Sipu Prakshayantaha Aparastu Yidhi योगे इति धातोः निष्पन्नः इन् प्रत्ययान्तः धातुपाठे स्थितः तस्य सूत्रेण किं प्रत्ययः भवति तत्प्रयुक्तं प्रथमवचने किं प्रत्ययस्य कुः इत्यनेन कृत्वं युङ् इति रूपं तथैव समनामस्थानेषु मुमागमः युजे रसमासे इति तेन युङ् इन्दौ युन्दः इन्दम् युन्दौ इति जायते ततः युजः युजायुभ्यामिः इत्यादि चोः कुः इति कृत्वं पदान्ते अजादिषु प्रत्ययेषु किमपि कार्यं न यत्तु युजसमाधौ इति धातोः निष्पन्नः युज् शब्दः तस्य किं प्रत्ययः नास्ति क्लिप् प्रत्ययान्तः एवं युजे रसमासे इति निमागमोऽपि न भवति तेन तस्य युजौ युजः इदं यदौ युजः इत्यादीनि रूपाणि भवन्ति समासेपि निमागमः नास्ति समासे किं प्रत्ययः भवति किन्तु निमागमः नास्ति अतः तत्रापि सुयुजौ सुयुजः इत्यादीनि रूपाणि सर्वत्र सोक्तिसूत्रेण कृत्वं भवति अग्रिमं पदमस्ति खण्ड् इति प्रातिपदिकं चकारान्तः खण्ड् शब्दः लैन् वर्तते प्रयोगान्तलोपः खण्ड् खण्डौ खण्डः इत्यादि उच्यतैः तावदेव उक्तं शब्दस्य विषये बालमनोरमां पश्यामश्चेत् संयोगान्तेज् इति प्रतीकः ततः पूर्वं खजि लजि वैप्लव्ये इति धातुः तेन धातुना निष्पन्नः अयं शब्दः खजि लजि वैप्लव्ये इकारः इति खज् इति धातुः तस्य क्रिप् इति स्वात् क्रिप् प्रत्ययः क्रियते खज् भवति इति स्वात् इदितो नुम् धातोः इति सूत्रमस्ति यत्र यत्र धातोः इकारस्य इत्वम् इत्थम्या भवति तत्र नुमागमः भवति उदाहरणार्थं वदि अभिवादनगत्योः इति धातुः वन्दते इति नकारः श्रूयते एवम् अत्र खजि इति धातुः खज् इत्यस्मात् नुमागमः ख न इति जायते अष्टापदान्तस्य इति अनुस्वारः मकारस्य अष्टापदान्तस्य झरि इत्यनेन अनुस्वारे खम् परतवर्णो न्यकारः सवर्गपञ्चमाक्षरः ඛණ්ඩ සද්ධහ වකාරස්‍ය නේරපත්‍යස්‍ය එක්කෙනේන ලෝකහ ප්‍රදන් සත්මා ප්‍රාතිපරිකත්ම සේහාප ප්‍රාතිපරික කොයි ඛණ්ඩ සත්‍ය විශේෂ මහ කිම් භවති ඛණ්ඩ සද්ධේ කතම් නිර්මාණි භවති සයෝහන්ත ලෝකහ එහෙක්කම් ඛණ්ඩ ධාතෝහ සුප්‍රත්‍යහ හල්ඥානිනා සුලෝකේ ඛණ්ඩ සුඛේ හල්ඥාභ්‍යෝදීපස්සිකම් හලස්සිකේන සුඛකේස්සේ ලෝකහ ඛණ්ඩ සුඛිත නියකාර දකාරා දකාරස්ස සංයෝගාන්ත ලෝකහ සෝද දකාරා සංදේ සංයෝගා සංයෝගාන්තම් යත් පදම් ඛණ්ඩ ඉති පදම් සත්‍ර නියකාර දකාරයෝ සංයෝගහ සංයෝගාන්තම් යත් පදම් සත්‍රම් සත්‍ය ලෝකහත්‍ය ඉති කේන දකාරස්ස ලෝකහ එදානින් ජකාර හඳු සහ වෙනිමිත්තා කෝර් අනුස්වාරා එන් පරසවරණ ඕස් ජකාර නස්්‍යා පදාන්තස්ය ජලි ජලි පරේ ඒව නකාරස්ය අනුස්වාරස්ය සහ සත්‍ය යෙලි පරේ අනුස්වාරස්ය යෙලි පරසවරණ ජකාරහ පුනහ යෙලි වරණහ ඉත්‍යතහ සත්‍ය පරසවරණ සතහ ඕස් නස්්‍යා පදාන්තස්ය ජලි ඇන් අනුස්වාරස්ය ඒ පරසවරණ හා ඩිපෙන්ඩ් අන් ද ජකාර බීන් ද But now the Jakara has been deleted by Sanyoganta Lopa. Tata ha, Nishtha Paya. Nishtha Paya Nainishti Kasya Pyapaya ha. Iti Paribhasha. So, Paribhasha with this, Nishtha Paya, and the Nishtha is lost. Nishtha Kasya Paya Iti Nainishti Kasya. Sam Nishtham Ashrita Yaskariyam Satam Kasya Api Apaya ha. Lopa. Satyavi Nidhut Iti Bhavati. I mean, the karya whichever has happened depending on that particular entity will also be taken back. If we go back to its earlier stage. So, Atra Kim Bhavati. Adho Parasavarnaha Nidhutaha. Nyakara. Anuswara being converted to Nyakara is reversed. So, we get back to Anuswara. The Anuswara again was dependent on Jakara. So the Dakara is not there, that is also, the conversion of Makara to Anuswara is also reversed. Adaha punaha Makaraha Bhavati. Khan iti rupam ityartha. Khand yataha Jakarasya lope Yakaraha api Makarasyena parinamyate. It gets converted back to Makara because of Jakara lopa. Khan iti rupam. When he takes up some other question, Aniritam iti nalopasthana iti sva. Aniritam hala upadhayas kineti iti ekam sutramasti agre bhavati. So, tena nalopaha putrona iti prashna. He is asking, why do we not do nalopa? Whenever there is kha, nyu, jil, sanyoganta lopa is one thing which can happen. But upadhayas halaha iti pare lopaha iti prashna. The hal of the upadha itself gets deleted. When followed by kip prasaya. Khand krisp prasaya prasaya. Anitam hala upadhaya kiyati ityane na nyakara seva lopakrasum shakya deva iti prasna ha. Dasu na bhavati, kutro na bhavati, iti svaat. Iti tova mam dhato ho iti numa namastu pasya na. So and this sutra says anitam. Yaha iti nasti prasaya na lopha. So therefore there is no la lopha. The final form is khand. Khand, khandau khandaha. ඛණ්ඩම් ඛණ්ඩෝ ඛණ්ඩහ ඛණ්ඩා ඔකෙන් විද ෆෝම් එක සුඛියා ජීවිතන ඛණ්ඩ ඡාම් සෙබකින් හොයි කින්නක් බලව නලම කරනවා ඒක ස්ටොප් දෙර හි මූව් ඔන් ටු රාජ්‍ර ශබ්ද Okay, then the question on why not upadha dhirha. Khan it is chite, kena upadha dhirha, saranam sthane sa sa kutsu. అసిద్ధత్వం, సంయోగాంత లోపహ అసిద్ధ, సంయోగాంత లోపహ వివాద్యామస్తి, అతః సంయోగాంత లోపస్య అసిద్ధత్వాత్ ఉపధారీతః న భవతి న లోపస్కాది విడిగాంతస్య ఇత్యతి న భవతి ఉభయం న భవతి ఖండ ఇతి రూపం. ఖండ ఇతి రూపం తృతీయ ఏకవచనే, తృతీయ ద్వివచనే ఖండ ఖ్యామ్ ఇత్యస్తి. బహుషు స్థలేషు భవితుమర్హతి, తస్య వైకల్పికత్వమపి అస్తి ఇత్యతః విశ్వస్య విషయే చింతా నాస్తి. సంధిః ఖన్ ధ్యామ్ పదార్థస్య අතහ නැස්සා බලන්න සෙදෙලි ඉන්නවා. ඔතෝ කන්ජම් කන්ජා කන්ජම් කන්ජි කන්ජේ කන්ජම් කන්ජහ කන්ජහ කන්ජම් කන්ජහ කන්ජහ කන්ජෝ කන්ජම් කන්ජි කන්ජෝ සප්තමී බහුවචනයේ කියන රූපෝ ఖండి ప్రత్యభ్యజ ఇది శక్తు జష్టతత్వే రాణ్ రాణ్ రాజౌ రాజః రాజ్సు రాజ్సు ఇది అగ్రిమ శబ్ద ఈ కవర్స్ ఆల్ శబ్దాస్ ఇన్ సింగిల్ లైన్ సో ఆలో కార్యముక్తం జష్టతత్వే రాణ్ రాణ్ రాజౌ రాజః జకారాంత రాజ్ శబ్ద రాజదీప్తౌ ఇత్యస్మాత్ స్థితి రాజ్ శబ్ద రాజ్యదీప్తౌ ఇది ధాతు తస్మాత్ ద్విత్ ప్రత్యయ క్రియతే కర్తరి ద్విత్ ప్రత్యయ పునః రాజ్ ఇత్యేవ శబ్ద తస్య విశేషమాహ ఫలస్య ఇది రష్టభ్యజ రుజం విజ యజ రాజ రాజస్యసాం షః ఇది సూత్రం ఏతేషాం చరి పదాంతేచ షకారః అంతాదేశః భవతి మూర్ధన్య షకారః ఇది సూత్రార్థః రాజ్ తస్మాత్ ప్రత్యయ క్రియతే హల్యాదినా సులోపే హల్యాభ్యం హలచ్చి సులోపః రాజ్ రష్టభ్యజ ఇత్యనేన షత్వం యకారస్య స్థానే షకారః ఔర్ధ్వనే షకారః ఆదేశం క్రియతే తస్య జష్ట్వేన లకారః ఛలాంజశోంతే ఇత్యనేన లకారః రాడ్ జాతం వామస్థానే ఇది సత్వవికల్పః రాట్ రాడ్ ఇది రూపద్వయం రాట్ రాడ్ రాజౌ రాజః శ్యామాదు స్వాదిషు ఇది పదాంతత్వా షత్వం జష్టవిత పునః రాట్ రాజౌ రాజః రాజం రాజౌ రాజః రాజా రాజ్ శ్యామ్ ఇత్యస్తి అత్రాపి పదాంతత్వాత్ ప్రత్యభ్యజ ఇత్యనేన షత్వం భవతి రాట్ శ్యామ్ జష్ట్వేన లకారః విశేషం when you look at this, is when you see the utility of Bala Manorama, he gives everything, whatever it is, it is just everything is pictured. No other reaction. Bala Manorama is called Bala Manorama because it is useful for beginners or those who are not very fluent. I mean, no other reaction, I can tell you, for any Shastra Grantha, reaction will not be so detailed. నోబడి వెళ్తే కులోపే వస్తాయి సత్వం దకారహ వావసానే సత్వ వికల్ప దట్ ఇస్ వెరీ బాలమనోరమ ఇస్ వెరీ యూస్ఫుల్ ఫార్ బిగినర్స్ ఇఫ్ యూ కెన్ లెర్న్ టు రీడ్ ద బాలమనోరమ అండర్స్టాండింగ్ ద హోల్ ఆఫ్ కౌమలి ఇస్ వెరీ ఈజీ దట్ ఇస్ వై ఈవెన్ దో దేర్ ఆర్ ఫ్యూ ఎర్రర్స్ బాలమనోరమ ఇస్ నాట్ ఎర్రర్ మేడ్ అ ఫ్యూ మిస్టేక్స్ ఇట్ ఇస్ ఆల్ దేర్ బట్ స్టిల్ ఇట్ ఇస్ కన్సిడర్డ్ అ వెరీ గుడ్ వ్యాఖ్యాన ఫార్ బిగినర్స్ एवं विभ्राट विभ्राज शब्द एवं नाम राज शब्दवत विभ्राज भ्राज धातु तस्य प्रत्यये विभ्राज तस्य प्रत्यये विभ्राज शब्दस्य अपि रस्य भस्य रिजम रिज यज राज श्राज राज धातुना सह भ्राज धातोः अपि ग्रहणमस्ति सूत्रे अतः विभ्राट विभ्राड विभ्राजौ विभ्राजः विभ्राजं विभ्राजौ विभ्राजः इत्यादीनि रूपाणि Similarly, just like a rat chakra, you will have vikraj. Devet, devetau, devetaha. Agrana shabdaha, devet shabdaha. No, going back to evam vikrajiki. Raj shabdavat, sattvari, vikrajaha. Tu bhajr dittau, bhraj bhajuhu, tasmata, trip kratayaha. Vishishya bhajate, iti vikraj. ಅಗ್ರೆ ದೇವೇ ದೇವೇ ಧಾತು ಯಜದೇವಪೂಜಾ ಯಜಧಾತು ದೇವ ಯಜ್ ಇತಿ ಹಾರ ಹಾಕಿ किन्तु तस्मात् स्लिप् प्रत्ययः क्रियते देवयज् स्लिप् इति उच्यते वचिस्तुपि यजानीनाम् इति इत्यनेन यजधातोः सम्प्रसारणं भवति सम्प्रसारणम् इज्यनः सम्प्रसारणम् यनः स्थाने यन् नाम यकारः यज् इत्यस्य तस्य स्थाने इकारः सम्प्रसारणत्वेन भवति देव इज् इति जातं सम्प्रसारणस्य इति पूर्वरूपे गुणे सति देवे इति प्रातिपदिकम् So in the Pratipadika itself, you have Devet. The Samprasarana occurs even before you have the Pratipadika. Trip Prate Prate Eva Samprasaranam Bhavati, that is Devet iti. Pratipadika. Satya. Punaha Vrashta Bhajya Srija Mrija Yaja Raja Bhajya Shasham Shasham. ಯಜಧಾತೋ ಅಪಿ ಗ್ರಹಣಮಸ್ತಿ ಅತಃ ಅತ್ರಾಪಿ ಸತ್ವಂ ಜಸ್ವಂ ರಾಜ ಶಬ್ದವದ್ ರೂಪಾಣಿ ವೃಷಭಸ್ಯ ಸೃಜಧಾತುಃ ಅಸ್ತಿ ಸೃಜಧಾತೋ ಉದಾಹರಣಂ ದರ್ಶಯತಿ ವಿಶ್ವಸೃಡ್ ವಿಶ್ವಸೃಡ್ ವಿಶ್ವಸೃಜೌ ವಿಶ್ವಸೃಜಃ ಸೊ ದಿಸ್ ಇಸ್ ಅಗೇನ್ ದ ಸೇಮ್ ವಿಶ್ವಸೃಡ್ ಇತಿ ಅಂತ ಪ್ರತೀಕ ಪ್ರಶ್ನ ಯಜ್ ಇತ್ಯನೇನ ಸಮಸ್ತಸ್ಯಾಪಿ ಗ್ರಹಣಮಸ್ತಿ ವಾ ಭವತಿ ಯಜ್ ಧಾತುಃ ಅಂತೆ ಭವೇತ್ ತಾವದೇವ ಆಸ್ ಲಾಂಗ್ ಆಸ್ ದೇರ್ ಇಸ್ ಯಜ್ ಧಾತು ಅಟ್ ದ ಎಂಡ್ ಆಫ್ ದ ಪ್ರಾತಿಪದಿಕ ಯಿಲ್ ಗೆಟ್ ದ ಕಾರ್ಯ ವೆದರ್ ಇಟ್ ಇಸ್ ದೇವೇ ಆರ್ ಎನಿಥಿಂಗ್ ಬ್ರಹ್ಮೇ ಬ್ರಹ್ಮ ಯಜತಿ ಇತಿ ಭವಿತುಮ್ ಅರ್ಹತಿ ಎನಿಥಿಂಗ್ ಆಸ್ ಲಾಂಗ್ ಆಸ್ ಯಜ್ ಇಸ್ ದೇರ್ ಅಟ್ ದ ಎಂಡ್ ಆಫ್ ದ ಸಮಾಸ ದಟ್ ಕ್ಯಾನ್ ಆಲ್ಸೋ ಬಿ ಕನ್ಸಿಡರ್ಡ್
It is the same case with all these dhatus. Raj, Bhaj. In Bhaj also we saw with Bhaj. It is the same. Evam Vishnu Sridhu. It is the same. Sridhu Visarge. It is Bhaj. Srashti. It is the creator. Sridhu Visarge. It is Bhaj. Sridhu Pratyaha. Vishwam Sridhu. To create the world. It is the same. Sridhu Pratyaha. Vishnu Sridhu. It is Pratyaha. Vrashya iti shatvadi Suprateha shatvam jatvam Ekalpitam shatvam Vishwasrid Vishwasrid iti rupam Vishwasrido Vishwasridaha The forms are all of them are like Rajashanta इह त्रिधि अध्योगो कुत्वम न इति खीवे वक्ष्यते The question asked here वहा प्रस्नः इति पक्ष्यते इहे ति प्रती कहा त्रिधि ननु प्रिवन केति देवे शब्दे विश्वसुद शब्दे च हिन प्रत्ययः यस्मात् इति बहुग्रीह्याश्रयणात् ऋत्विक् शब्दवत् कुत्वं कुतो न स्यात् We had a sutra that says Svintratyasya Kuhu Svintratyasya Kuhu Ichanena ki muktam Asmadhuhi sadharanataya artaha uktaha Svintratyantasya Nishya Svintratyaya asti So that any word ending in a Svintratyaya will get kutva Is how we interpreted it there किंतु सूत्रार्थः दीक्षितैः तथा न लिखितः कथं सूत्रार्थः लिखितः किं प्रत्ययः यस्मात् तस्य कुत्वं स्यात् पदान्ते इति उक्तम् किं प्रत्ययः यस्मात् सः इति बहुव्रीहिसमासः कृतः कः अर्थः इति चेत् एनी थिङ्ग् विच् हेज् द It can get svintratya, which has got svintratya in some context. Okay? Whether it is in this particular context or not, as long as it has got svintratya in some particular context, tasmātu kutvam bhavati, iti sutrārthaḥ, iti bhādikṣitaḥ, there is a reason why he did that. There are cases where even if the word under consideration is not svintratyaartha, Only samasa. For example, there is a samasa. What he is saying here is that you have Devaj, okay, or Vishwasrid. Kimasyatra, Sridhidhatu hasti, Yajidhatu hasti. Rusvig Rajat Prasvigyushya Ranchuviti Sintanta Yati Sutraya Sintateha Vijiyate Rusvig Ityatra Yajidhatu hu Srinthatyaha Ritvik is derived from Yajidhatu Evam Srak is derived from Srijidhatu So Ritvik and Srak will get Srinthatyaha only in a particular case Ritvik will get In case of Ritvik, Yajid will get Srinthatyaha only when there is an Upapada And Srijid will get Srijidhatu will get Srinthatyaha only when there is no other Upapada, okay, nirupapada deva bhavati, that is the case. Svintratyaha atra na bhavati iti satyam. Kintu, svintratyasya kuhu ityatra, svintratyaha yasmat saha iti vigrahe srute. The purpose of doing the vigraha of svintratyasya as svintratyaha yasmat saha is, whichever dhatu gets svintratyaya in some context. In, say for example, with a particular upapada, yaj will get svintratyaya. Now, any other samasa ending with yajadhatu should also get kutva. That is the purpose of making the vigraha of svintratyasya as svintratyaha yasmasaha. Idani, vivanteti devet sabde vishvasu sabde char. We are, in this case, devan yajati ityatra yajadhatu hu kvistu pratyaha kriyate. Evam vishvam sridati ityatra kvistu pratyaha eva kriyate. Svintratyaha nasti. Tathapi, Svintratyaha yasmat saha iti vikrahe Svijidhatoho yajidhatoshya kvachit svintratyaha kritaha There has been some case in which these two dhatus have gotten the svintratyaya So according to this vigraha बहुव्रीह्याश्रयणात् ऋत्विक् शब्दवत् कुत्वं कुतो न ऋषुद्धि कुत्वं वै त्रिंसते अस्ति कुः इस् द आर्ग्युमेण्ट् द आर्ग्युमेण्ट् सेस् बिकास् आफ् दट् पेक्युलियर् विग्रह इन् त्रिंसते अस्ति कुः इवन् त्रिवन्तान् लैक् देवेज् अण्ड् विश्वसृत् शुड् गेट् कृत्वा वैदसूत्र त्रिंसते अस्ति कुः सो वै इस् द कृत्व नाट् हेपनिङ्ग् इह ऋजियज्योः कुत्वं न इति क्लीरे वक्ष्यते ऋजधातु अण्ड् यजधातु आर् एक्सेप्शन् टु द रूल् सिन्धस्यस्य कुः वास् मेड् फर् दट् पर्पस् दट् इस् द धातु विच् आर् कन्सिडर्ड् देर् इवन् इन् अदर् केसस् दे विल् गेट् कुत्वा इवन् इफ् दे आर् नाट् सिन्धस्य आन्सर् देट् एक्सेप्शन् टु दोस् आर् ऋज अण्ड् यज् ऋजियज्योः कुत्वं न भवति इति क्लीरे वक्ष्यते नपुंसकलिङ्गप्रकरणे he is dealing this with in Navamsakalinga Prakaranam he will tell later that Sridhi, Sridhi and Yadathatu will not get Sukva. The Vakshana says Ihaiti, Sridhi Drishoho iti Sutre, Kamnet Sutre sa Vishwasrid Bhyam iti Upayak Kamnet iti sa Bhashya Prayoga Sin Sutre Yasya iti Sukva na ityastha. So we are preventing Kutva for this entirely based on Prayoga. Bhashyapkarena Prayogaha Svataha. Kimeti Vishwasriddhyam. Ityanena Dakaraha Asti. Dakara means Rajinshatva Jashva. Right? And not Kutva. Kutvam na Krutam. Ataha Vishwasriddhyam. Ityeva Rupam. Sriddhyam. If there was Kutva, the Bhashyakara should have said Vishwasriddhyam. Kena Tatha Nuktam. Evam Upayat Kamyati. Upayat Ityatra. जस्त्वं तथैव सत्त्वं कृतं कुत्वं न कृतं बिकास् आफ् भाष्यकारप्रयोग देर् इस् नो कुत्व इन् केस् आफ् सृज् अण्ड् यज् फार् आल् अदर् धातु विच् आर् टेकन् अप् इन् ऋतिक् एक्सेट्रा वेदर् दे आर् सिन् प्रत्ययान्त आर् नाट् वेदर् अ पर्टिक्युलर् वर्ड् एण्डिङ्ग् इन् दट् धातु इस् सिन् प्रत्यय आर् नाट् they will get kutva by sinpratyayasya kuhu. That is how sinpratyayasya kuhu is interpreted. Does that make sense?
Right. This is how to make a heart to be very high. So that we have to see what are the words in Rasik Dhabhya Kiri Sutra, K.K. Bhattavaha Kandi, Shesham Sarveshnam, Rupani, and Swamji, Gopi Nandri Sai. We have just seen one Khatu which is used. For the other Khatu, what is happening is the Yeye Bhattavaha Dhabhya Kiri Sutra, Kadi Kapha, Shesham Visheshma Vishyate. Amena Sutra, Kim Kattraha Bhavati, Iti Kattraha. किन्तु तेषां धातूनाम् अन्यप्रत्ययान्तर्गेति उदाहरणार्थं सुप्रत्ययान्तर्गेति हिन्प्रत्ययस्य कुपूत्रेण कुत्वं भवति कथं कुत्वं साध्यते इति चेत् हिन्प्रत्ययस्य इत्यत्र विशिष्टतया विग्रहः उच्यते कीदृशः विग्रहः हिन्प्रत्ययः यस्मात् सः इति बहुव्रीहिः दट् आन्लिक् स्क्रीन् प्रत्ययः आर् फालोयिङ्ग् विच् स्क्रीन् प्रत्यय केन् अकर् तस्मिन् अर्थे विग्रहः इति उक्तत्वात् for those dhatu, such a case is seen. So this will be clear only when we see a case where kutva occurs. Even when the word is not svinsatyanta by itself, we can use svinsatyasya kuhu to do kutva. And that kutva will not happen in case of sruj and yaj is what he is saying. So it is not possible to understand this exactly till we see where that kutva is occurring. If he says, he will deal with later. So now, you have Shabdaj Raj, Vibhraj, Devej, Vishwasrij. Sarvesham Etesham Chaturanam Api. Vrascha Bhajya Sridhamrita Yajanaja Bhajya Chasham Shaha Ityanena. Jali Padantecha Shattvam Bhavati. Shattve Krute Jastvam Bhavati. Prasangyesati Shattvam Api Bhavati. So all of them have similar form. अग्रे परिमृत् उच्यते एतदपि तत्रैव अस्ति वस्त्रभ्रज सृज मृज मृज धातुः अपि
वृक्षादि सूत्रे अस्ति तस्यापि तथैव रूपाणि परिमृडिति मृजु शुद्धौ इति धातुः मार्ष्टि मार्जनं करोति मार्जनं इस् टु क्लीन् आर् टु स्वीप् आर् टु वैप् सः धातुः मृजु शुद्धौ इति धातुः तस्मात् क्लिप् प्रत्ययः नीतिचेति निषेधात् मृजेर्वृद्धिः न भवति सूत्र काल्ड् मृजेर्वृद्धिः दिस् विल् नाट् अप्लै हि सेयिङ्ग् सो द प्रातिपदिका इस् परिमृज् ओके परिमृज् इति जकारान्तं प्रातिपदिकं वरश्च भ्रज इत्यादिना षत्वं भवति परिमार्ष्टि इति परिमृज् परिमार्ष्टि इति विग्रहः कर्तरिकृत् प्रत्ययः तेन परिमृज् तु हल्यादिना तु लोपः जकारस्य षत्वं जस्त्वं वैकल्पिकं सत्त्वं परिमृत् परिमृड् परिमृदौ परिमृदः परिमृदं परिमृदौ परिमृदः परिमृजा परिमृड्भ्यां परिमृड्भिः सो द फार्म्स् अगेन् अट् द सेम् ओके नेक्स्ट् इस् षत्वविधौ राजिसाहचर्यात् सुभ्राजृदीप्तौ इति फणादिरेव दृश्यते यस्तु एजृभ्रेजृभ्राजृदीप्तौ इति तस्य कुत्वमेव विभ्राक् विभ्रां विभ्राभ्याम् इत्यादि नौ देर् आर् टु भ्राजधातु भ्राजधातुः द्वित्रपठितः एकं तु सुभ्राजृदीप्तौ इति फणादिः अन्यः एजृभ्रेजृभ्राजृदीप्तौ बोत् आफ् देम् मीन् दीप्तौ दीप्त्यर्थकौ एव द्वे द्वौ भ्राजृधातुः स्तः देर् आर् टु धातु फार् भ्राजृदीप्तौ वन् इस् त्रित् टु भ्राज देर् इस् टु वित् इस् बीङ्ग् इत् रदर् डस् नाट् हाव् टु एस् द इत् सो देर् इस् अ कार्य विच् विल् बि मैण्ट् फार् त्रित् एण्ड् नाट् त्रित् दट् इस् डिफरेण्ट् सो वै टु डिफरेण्ट् धातु इस् अ डिफरेण्ट् क्वेश्चन् विच् इस् देर् रूपे भेदः भवति If there is two as if there will be some particular karya and this will not get the karya, it's the purpose of having two different dhatu. Idanim Vrishabhrajya iti sutre kasya grahanam iti prashnaha. Which of these dhatus are we considering in the sutra Vrishabhrajya? Tada kimuchyate sharka vidhau nama Vrishabhrajya Sridham Raja Yaja Raja Bhraja ityatra Raji sahacharyat because of its association with Raj. Rajadhatu is only one. Rajadhitau is eva dhatu. Because it is associated with that, Subhrajadhitau iti phanadi reva dasyate. Phanadihi iti bhadigane antargana. Phanadi is a sub-class of the bhadigana of dhatu. So this Rajadhatu is part of that phanadi. Okay? So we take the Rajadhatu which is also a part of phanadi. Tasminneva अन्तर्गणे यः भ्राजधातुः अस्ति तु भ्राजदीप्तौ इति तस्यैव ग्रहणं भवति किमर्थं साहचर्या बिकास् इट् कम् इमीडियट्लि वित् राज बिकास् पाणिनि हस् सेड् यज राजभ्राज हेस् पुट् देम् टुगेदर् वि टेक् दोस् विच् आर् रिलेटेड् इन् द धातु पाठ रिलेटेड् बै बीङ्ग् पार्ट् आफ् द फणादि गण सो दिस् अदर् वन् एजृभ्रेजृभ्राजदीप्तौ लैफ् औट्सैड् द फणादि गण खणादिगणे नास्ति राजेः साहचर्यं नास्ति अस्य अतः तस्य ग्रहणं वृषभ्रज इति सूत्रे न भवति सो यु विल् नाट् कन्सिडर् द सेकेण्ड् भ्राजधातु इन् वृषभ्रज तदा किं भवति विभ्राज इत्यस्ति विभ्राज तु हल्याभ्यः इत्यादिना सुलोपः इदानीं वृषभ्रज इति शत्वं न भवति सो वाट् शुड् हेपन् विभ्राज इत्यस्ति चोक्कुः इत्यनेन कुत्वं भवति सवर्गस्य स्थाने कवर्गः विभ्राग् इति जातम् मामस्थाने इत्यनेन चर्त्वे विभ्राक् विभ्राग् विभ्राजौ विभ्राजः तृतीयादावपि विभ्राजा विभ्राग्भ्याम् विभ्राग्भिः सर्वत्र डकारस्य स्थाने गकारः श्रूयते बिकास् आफ् कुत्व सो दट् इस् द डिफरेन्स् बिट्वीन् द टु भ्राज् धातु सुभ्राजभीक्तौ इति धातोः कश्च इत्यादिना शत्वं भवति अत्र भ्राजदीप्तौ इति अपरः यः धातुः तस्य चोक्कुः इत्यनेन कुत्वं भवति
अथ
विभ्रादिति कुत्वं साधयितुम् आह विभ्रात् विभ्राड् इति सकारस्य रूपम् अस्ति एवं कुत्वमपि अस्ति कथम् इति चेत् शतविधौ नाम वृश्चादिसूत्रे वृश्चभ्र इति सूत्रे राजिताचर्यात् भ्राजेः सुभ्राजदीप्तौ इति खणादिरेव दृश्यते अन्यस्य तु कुत्वमेव विभ्राज् शब्द विभ्राज् इति प्रातिपदिकद्वयम् अस्ति एकस्य वृश्चादिनाशत्वं भवति अपरस्य चोक्कुः इत्यनेन कुत्वं भवति. So the next word would be Parivraj, which we will see in the next class. Kopi prashna asti che prishyata. It is very fast today. And I myself am not used to teaching without teaching this plain text. Exactly. Actually, I'm more for you. Exactly. It's happened again. Yeah, the style which we've followed so far has been that way. So, let's see. At least for the still the Shabda Prakaranam, I'll be using slides. So sister, today I did not want to cancel a class just because I could not make slides. And it is good to have a specially look at the text instead of looking at the slides. But probably from say three pratyayas or passing one Shabda Prakarana Janidam, one Prakriya is over, it would be better for the students to look at the actual text and not lay on slides, because there is no prakriya. The slide can be used occasionally, but I was thinking of reducing the slide dependency after we finish Shabda Prakarana. Shabda Prakarana Paryantam prakriya asti ityataha upayogaha bhavatyeva. Satah param katham mula granthaha pathaniyaha iti chintaniyam. That is a technique of learning, reading a text along with Vyakshana. We may do Siddhanta Kaumudi, we may even be lucky enough to finish Siddhanta Kaumudi. But if you move on to the other text, in any Shastra, the important part is to understand how to read the text by oneself, rather than depending on the teachers. Whether today or any time, anywhere, it is difficult to find teachers who can teach you everything in Shastra. So even in Bhashya, even if you are lucky enough to have a teacher, you might do the Navanika part. So by the time you finish that, you are expected to know how to read the Mahabhashya by yourself. That is actually the intent of all Shastra training. It should teach you how you can read other Granthas by yourself, and yourself means you have the text, you have the Vyakshana, you can relate both and understand by yourself. So that is real Shastra Jnana and not timing. Actually learning the Granthas, we are still, Kaumudi is a very infancy stage for Shastra, so it's okay. But after Shabda Prakaranam, we'll see how we can use the text more and other things less. Certainly. We'll see how it happens. Because for me also it's definitely easier to teach when I have slides than when I have this plain text. Because one thing is I give a complete look ahead, so I know what is coming, which is there. And also somehow it's easier to express things better with the slides than when you have this text in the It is required for both. Yes? Yeah. Maybe that we can do. That we can see. Even in a slide, you can have say Mula and Vyakshana related, so you don't have to move. But moving back and forth might be really. Let's see how to deal with it.
ఏనాక్షర సమాం నాయం అధిగమ్య మహేశ్వరాత్ కృష్ణం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః.
నాస్తికారం వరదతిం భాష్యకారం పతంజలిం పాణినీ సూత్రకారం చిత్తన కౌశ్మీ త్రయం మునిత్రయం నమస్కృత్య తదుశ్రీ హరిహా వ్యయాకరణ సిద్ధాంత కౌమిదీయం దృశ్యతే.